वदतु भगिनि.
हरिः ओम्. अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानाम् एकदन्तम् उपास्महे. श्रीमहागणपतये नमः. सरस्वती नमस्तुभ्यं वरदे कामरूपिणि. विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. श्रीमहासरस्वत्यै नमः. ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे. श्री हयग्रीवमूर्तये नमः. गुरवे सर्वलोकानां ऋषजे भवरोगिणां हृदये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः. अस्मद्गुरुचरणारविन्दाभ्यां नमः.
धन्यवादः भगिनी. सर्वेषां स्वागतम् अस्मिन् वर्गे. सर्वेभ्यो नमः. अद्य तत्र उपस्थापनस्य आरम्भं साक्षात् भवति. तत्र पञ्चतन्त्रकथाः सन्ति. तत्र लिङ्क् ईमेल् माध्यमेन प्रेषितमस्ति लिङ्क्. तत्र तृतीया कथा, तृतीया चतुर्थः. धन्यवादः भगिनि. चतुर्थी कथा तस्याः कथायाः उपस्थापनं तत्र वेदा भगिन्या भवति इदानीं. वंशीसुत भगिनी नमस्कारः. अस्तु तर्हि वेदा भगिनी. भगिनी वंशीसुत भगिनी, भवत्याः पार्श्वे कथा अस्ति खलु?
आम् आम् अहम् आगच्छामि महोदय.
अस्तु अस्तु अस्तु, चिन्ता मास्तु. लक्ष्मी भगिनी प्राप्तवती वा
काकस्य उपायः इति वा?
उपायेन शक्यं सर्वम् इति तत्र पेज् 7 मध्ये अस्ति. पी डि एफ् मध्ये पेज् 7 इदानीं प्रेषितवान् भगिनि. तत्र लिङ्क् एकवारं पश्यतु. प्रथमपुटः न, प्रथमपुटः तत्र काकस्य उपायः, किन्तु तत्र अग्रे गच्छतु, 7th पेज् गच्छतु. अस्तु भगिनि, वेदा भगिनि आरम्भं करोतु भगिनि.
सर्वेभ्यः नमस्कारः. अद्य एकां कथां पठामि. तस्याः शीर्षकः उपायेन शक्यं सर्वं. तस्य विषये अग्रे कथयामः. यदि कोऽपि त्रुटिः अस्ति चेत् क्षम्यताम्. अहं प्रयत्नं करोमि, प्रथमवारमेव, क्षम्यताम्. प्रथम परिच्छेदे एवमस्ति. कस्मिंश्चित् प्रथमम् अहं कथां पठामि, तस्य तत्पश्चात् तस्य विवरणं पठामि. कस्मिंश्चित् अरण्ये भासुरकः नाम सिंहः वसति स्म. किं वदति इत्युक्ते, कस्मिंश्चित् वने, अरण्ये इत्युक्ते वने, एकः सिंहः वसति स्म. तस्य नाम भासुरकः अस्ति स्म. सः अतीवशक्तिशाली, सः बहु शक्तिवान् अस्ति आसीत्. भासुरकः प्रतिदिनम् अनेकान् मृगान् विना कारणं मारयति स्म. एतेन वनस्य अन्ये मृगाः कष्टम् अनुभवन्ति स्म. भासुरकः दिने दिने प्रतिदिने एकमेकं मृगान् अनेकान् मृगान् विना कारणं मारयति स्म. सिंहस्य मारणेन अन्यमृगाः कष्टम् अनुभवन्ति स्म. द्वितीयपरिच्छेदे एतत् दत्तम्. अतः एकदा ते मृगाः सम्भूय गत्वा भासुरकं प्रार्थितवन्तः, स्वामिन् विना कारणम् एवं मृगाणां मारणेन भवतः कः लाभः. अतः एकदा ते सर्वे मृगाः मिलित्वा सम्भूय सिंहं प्रति अगच्छन्, सिंहं प्रार्थितवन्तः. किं प्रार्थितवन्तः? स्वामिन् तेन तम् उदरं पूर्णं भवति किल. एकस्य एव मृगस्य खादनेन भवतः उदरं पूर्णं भवति किल. तस्य अहं लिखितवती, भवान् एकः एव मृगः खादितुं शक्नोति, तेन तम् उदरं पूर्णं भवति किल. अत एव अद्य आरभ्य वयमेव प्रतिदिनम् एकं मृगं भवतः भोजनार्थं प्रेषयिष्यामः. कथायां तत्र दत्तमस्ति अतः अद्य आरभ्य भवतः आहारार्थं प्रतिदिनम् एकं मृगं वयमेव प्रेषयिष्यामः तेन न अत एव अद्य आरभ्य वयमेव प्रतिदिनम् एकं मृगं भवतः भोजनार्थं प्रेषयिष्यामः भवान् तं मृगं खादयित्वा अन्यान् मृगान् न पीडयतु इति सर्वे मृगाः सिंहं प्रति वदति वदन्ति सारि वदन्ति तत्र तत्पश्चात् बासुरकः तदा बासुरकः उक्तवान् तथैव अस्तु परन्तु यस्मिन् दिने मम समीपं मृगः नागमिष्यति तस्मिन् दिने सर्वानपि मृगान् मारयिष्यामि एव इति तदा बासुरकः उक्तवान् तथैव अस्तु परन्तु यस्मिन् दिने एकः एव मृगः न आगच्छति चेत् तस्मिन् दिने अहं सर्वान् मृगान् भक्षयिष्यामि इति उक्तः मृगाः तत् अङ्गीकृतवन्तः ततः आरभ्य प्रतिदिनं जातिक्रमेण एकः मृगः बासुरकस्य आहारत्वेन गच्छति स्म बासुरकः तं खादति स्म अन्ये मृगाः निर्भयम् अरण्ये सञ्चरन्ति स्म मृगाः तत् स्वीकुर्वन्तः तस्मात् दिनात् आरभ्य प्रतिदिनं जातिम् अनुसृत्य इत्युक्ते मृगाः जाति अस्ति शशकः वानरः एवं जातयः अस्ति जातयः सन्ति तत् जातिम् अनुसृत्य क्रमेण प्रतिदिनम् एकः मृगः बासुरकस्य भोजनार्थं गच्छति स्म बासुरकः तं खादित्वा प्रसन्नः अभवत् अन्ये मृगाः वने निर्भयेन सञ्चरन्ति स्म अन्य परिच्छेदमस्ति कदाचित् जातिक्रमेण केनचित् चषकेन बासुरकस्य आहाररूपेण गन्तव्यम् आपतितम् सः चषकः दुःखेन सिंहसमीपं प्रस्थितवान् मार्गे एकः कूपः आसीत् कूपस्य उपरि गमनसमये चषकः स्वस्य प्रतिबिम्बं तत्र दृष्टवान् तदा तस्य मनसि कश्चन उपायः स्फुरितः अहं बासुरकम् एतस्मिन् कूपे पातयिष्यामि इति चिन्तयन् सः विलम्बेन बासुरकस्य समीपं गतवान् इत्युक्ते कदाचित् एकदा जातिक्रमेण केनचित् चषकेन गन्तव्यम् आपतितं चषकेन किं वदामि चषकेन क्रमः आगच्छति सः चषकः दुःखेन सिंहस्य समीपं गन्तुम् उत्थितः मार्गे एकः कूपः आसीत् तस्य समीपे गत्वा कूपस्य उपरि दृष्ट्वा चषकः स्वस्य प्रतिबिम्बं दृष्टवान् तत्समये चषकस्य मनसि एकम् उपायं स्फुरितम् उपायं किं वदामि आगतः एकम् उपायम् आगतः तत् आगतम् एकम् उपायम् आगतम् अहं बासुरकम् एतस्मिन् कूपे पातयिष्यामि इति चिन्तयन् चषकः विलम्बेन बासुरकस्य समीपं गतवान् चषकः तस्य स्वस्य प्रतिबिम्बं द्रष्टुं तत्समये तस्य मनसि एकम् उपायम् आगतं तत् चिन्तयन् अहं बासुरकं यदि अहं बासुरकम् एतत् कूपस्य समीपे नयितुं शक्नोमि तद् तत्समये सिंहस्य कूपे पातयिष्यामि इति चिन्तयन् शशकः विलम्बेन बासुरकस्य समीपं गतवान् अद्य मृगः समयेन आगतः इति बासुरकः अतीव कुपितः आसीत् तदा शशकः मन्दं गत्वा प्रणम्य तस्य पुरतः स्थितवान् तं तर्जयन् बासुरकः उक्तवान् रे शशकादम समये आगन्तव्यमिति परिज्ञानं नास्ति वा भवतः भवान् विलम्बं कृतवान् किल अतः प्रथमं भवन्तं खादित्वा अनन्तरं सर्वं मृगकुलमेव नाशयिष्यामि इति अद्य विलम्बेन मृगः समयेन आगतः इति भासुरकः अतीवक्रोधितः अभवत् क्रोधितः अभवत् तदा तस्मिन् समये मन्दं मन्दं गत्वा शशकः तं प्रणम्यति तस्य समीपम् आगच्छति तं प्रणम्यति तं तर्जय शशकं ताडयित्वा सिंहः उक्तवान् सिंह हे अधमशशकः भवतः परिज्ञानं नास्ति वा समये आगन्तव्यम् इति भवतः परिज्ञानं नास्ति वा किं विलम्बं कृतवान् अहं प्रथमं तं खादित्वा अनन्तरम् अन्ये मृगकुलमेव नाशयिष्यामि इति उक्तः तदा शशकः विनयेन उक्तवान् स्वामिन् मया अपराधः न कृतः भवतः समीपं समये आगन्तव्यम् इत्येव अहं प्रस्थितः परन्तु मार्गे अन्यः एकः सिंहः आसीत् सः मां दृष्ट्वा पृष्टवान् भवान् कुत्र गच्छति इति वासुरकस्य आहारार्थं गच्छामि इति अहम् उक्तवान् तदा सः उक्तवान् एतत् मम अरण्यम् अत्र सर्वे अपि मृगाः मम आज्ञां पालयेयुः वासुरकः कुत्र अस्ति सः चोरसिंहः स्यात् भवान् तम् अत्र आनयतु आवयोः मध्ये युद्धं भवतु युद्धे यः जयति सः एव भवन्तं खादतु इति तस्य सूचनानुसारम् अहम् अत्र आगतवान् अतः एव विलम्बः जातः इति तदा तस्य वचनं श्रुत्वा शशकः नम्रेण उक्तवान् स्वामिन् मया स्वामिन् इति सम्बोधनं कृतवान् स्वामिन् मया अपराधः न कृतः अहम् अपराधं न कृतवान् भवतः समीपं समये आगन्तव्यम् इत्येव अहं प्रस्थितः अहं समये आगन्तुम् इच्छति तदेव अहं प्रस्थितवान् परन्तु मार्गे एकः अन्यः सिंहः आसीत् सः सिंहः मां दृष्टवान् अपि च पृष्टवान् भवान् कुत्र गच्छति इति भासुरकस्य भोजनार्थम् अहं गच्छामि इति उक्तवान् तदा सः सिंहः उक्तवान् एतत् तु मम वनम् अत्र सर्वे मृगाः अपि सर्वे अपि मृगाः मम आज्ञा पालनीया भासुरकः कुत्र अस्ति सः सिंह एव नास्ति सः चोरः स्यात् भवान् तं तत् सिंहम् अत्र आनयतु आवयोः मध्ये युद्धं भवतु यः युद्धे जयति सः एव भवतं खादतु इति उक्तवान् तस्य सूचनानुसारम् अहम् अत्र आगतवान् अतः एव तदेव अहं विलम्बेन आगतवान् इति शशकः उक्तवान् एवं वा तर्हि तं सिंहम् इदानीम् एव मारयामि सः कुत्र अस्ति प्रदर्शयतु इति वासुरकः उक्तवान् शशकः तं कूपसमीपं नीतवान् कूपं प्रदर्शितवान् एवं वा तर्हि तं सिंहं कुत्र अस्ति अहं तत् सिंहं मारयामि मम तत् सिंहं पार्श्वे नीतवान् प्रदर्शयतु तत् सिंहं प्रदर्शयतु इति भासुरकः उक्तवान् शशक तं भासुरकं कूपसमीपं नीत्वा कूपं प्रदर्शितवान् भासुरकः तत्र जले स्वस्य प्रतिबिम्बं दृष्टवान् क्रोधेन गर्जनं कृतवान् कूपतः इतोपि उच्चैः प्रतिध्वनिः आगतः भासुरकः तं प्रतिबिम्बमेव स्वस्य प्रतिस्पर्धिनम् इति मत्वा तं मारयितुं तस्य उपरि आक्रमणं कृतवान् भासुरकः कूपे समीपे गतवान् तत्र कूपस्य जले स्वस्य स्वं प्रतिबिम्बं दृष्टवान् सः क्रोधेन गर्जितवान् सः गर्जनं तेन गर्जनस्य प्रतिध्वनिः इतोपि उच्चैः आगतः बासुरकः तत् तं प्रतिबिम्बम् एव स्वस्य प्रतिस्पर्धिनीं स्पर्धिनम्
इत्युक्ते न श्रूयते महोदय,
न श्रूयते वा?
अधुना श्रूयते, अधुना श्रूयते भगिनि.
ओके, बासुरकः तं प्रतिबिम्बं स्वस्य प्रतिस्पर्धिनम् इति मत्वा तं मारयितुं तस्य उपरि, तस्य इत्युक्ते कूपस्य उपरि आक्रमणं, कूपस्य उपरि न, कूपस्य जलस्य उपरि आक्रमणं कृतवान्. कूपमध्ये पतितः सः जले निमग्नः मृगत च, सः कूपमध्ये पतितः जले निमग्नः अभवत्, मृतः अपि जातः, मृतः अपि मृतः अभवत्. एवमेव शशकः शशकस्य उपायेन सिंहस्य मृत्युं भवितुं शक्नोति, कर्तुं मृत्युं कर्तुं शक्नोति. अतः कोऽपि कठिनं कार्यम् अस्ति चेत् उपायेन तं कार्यं शीघ्रम् अपि च सुलभमेव कर्तुं शक्नुमः. तस्य शीशकस्य एवमेव किं वदति, एवमेव अर्थमस्ति, तद् एवमेव अर्थमस्ति. ते कोऽपि कार्यं कष्टं नास्ति, यदि उपायं कर्तुं शक्नुमः तं तद् तस्य कार्यस्य कठिनस्य कार्यस्य अपि सुलभेन कर्तुं शक्नुमः इति मम मतं, मम मतं. तत्र किं वदामि, व्याकरणविषये अपि किञ्चित् वदामि इति अहं मन्ये. महोदय किं वदति?
समीचीनं भगिनि, अस्तु अस्तु, समीचीनमस्ति भगिनि. इदानीं व्याकरणविषये वदतु. इदानीं तत्र कथायाः अर्थः कः इति किञ्चित् उक्तवती, समीचीनं भगिनि. इदानीं तत्र व्याकरणविषयम् अपि वदतु भगिनि.
एकमेव परिच्छेदे
प्रत्येकं परिच्छेदं स्वीकृत्य तत्र तस्मिन् परिच्छेदे किं किम् अस्ति इति वदतु भगिनि. समीचीनं, उत्तमं.
कस्मिंश्चित् अरण्ये बासुरकः नाम सिंहः वसति स्म. तत्र प्रथमपरिच्छेदे स्म शब्दः प्रयुक्तवान्, सर्वे सर्वत्र स्म शब्दः अस्ति. स्म शब्दः किं वदामि, भूतकाले प्रदर्शितं तस्य उपयोगं करोति. वसति भविष्यत्काले अस्ति, परन्तु स्म अस्ति चेत् वसति स्म इत्युक्ते अवसत् इति रूपं
वसति भवति तत्र भविष्यत्काले इति न, तत्र वर्तमानकाल इति, वर्तमानकाल इति वक्तुम् इच्छति खलु.
नैव, वसति नाट् भविष्यकाले,
वर्तमानकाल, वर्तमानकाल. समीचीनं समीचीनम्, अस्तु अस्तु,
वर्तमानकाले. स्म इत्युक्ते अवसत् इति रूपं प्रयोगं कर्तुं शक्नुमः. अवसत् कस्मिंश्चित् अरण्ये, कस्मिंश्चित् तत्र अरण्ये सप्तमी विभक्ति अस्ति, तस्य विशेषणं विशेषभावम् अस्ति. कस्मिंश्चित् कस्मिन् चित् चित् प्रयोगः अस्ति तत्र. कस्मिन् इति सप्तमी विभक्ति अस्ति किं शब्दस्य. कस्मिंश्चित् अरण्ये बासुरकः नाम सिंहः, तत्रापि विशेषणविशेषणम् अस्ति. सिंहः नाम बासुरकः इति अस्ति. वसति स्म अहम् उक्तवती किम् अवसत् इति. सः अतीव शक्तिशाली, सः इत्युक्ते सिंहः, अतीव बासुरकः अतीव बहु शक्तिशाली, शक्तिमान् इति अहं लिखितवती. शक्ति सर्वस्य वन् सेकेण्ड्, शक्तिशाली शक्ति षट् धातुतः आयाति. षट् धातु प्लस् तिन् प्रत्यया शक्तिः भवति. यस्याः शक्तिः अस्ति सा शक्तिशाली इति अहं लिखितवती. अहं मन् सपोस् एनिबडि थिङ्क्स् दट् इस् राङ्ग् प्लीस् लेट् मी नो.
सत्यं भगिनि, तत्र शालिन् इति नकारान्तपदं, शक्तिशाली शक्तिशालिन् नकारान्तपदं, शक्तिशाली शक्तिशाली इति प्रथमविभक्तिरूपम्. अतीव इति किम् अस्ति तत्र, अतीव इति
अव्ययम्,
अव्ययं, समीचीनं भगिनि.
बासुरकः प्रतिदिनम् अनेकान् बासुरकः प्रतिदिनम् अनेकान् मृगान् विना कारणं मारयति स्म. तत्र प्रतिदिनम् इत्युक्ते दिने दिने समस्तपदम् अस्ति अहं मन्ये.
प्रतिदिनम् अव्ययम् अस्ति भगिनि.
अच्छा ओके. प्रतिदिनम् अव्ययम् अस्ति. अनेकान् मृगान् अनेकशब्दस्य अनेकान् तृतीया बहुवचनं मृगान् मृगशब्दस्य मृगः पुल्लिङ्गशब्दस्य तृतीया द्वितीया बहुवचनं मृगान् अनेकान् तस्य विशेषणं विशेषणविशेषरूपमस्ति तत्र. अनेकान् मृगान् विना कारणं कारणं विना इत्युक्ते का विना शब्दस्य प्रयोगं कर्तुं समये द्वितीया विभक्तिप्रयोगं करणीयं. तदेव कारणम् इति शब्दाय अस्ति. कारणं विना मारयति स्म. मारयति तत्र मारयति किं बहुवाचकशब्दं वा न
णिच् अस्ति तत्र णिच् अस्ति. पठति पाठयति तादृशं पाठयति इव अस्ति. मारयति
निजन्तरूपं निजन्तरूपयति स्म. भूधातुतः आयाति मारयति. प्रेरणा अपि निच् अस्ति. एतेन वनस्य अन्ये मृगाः कष्टम् अनुभवन्ति स्म. एतेन एतेन इत्युक्ते मृगान् विना कारणं मारयन्ति न तत्र तत्कारणेन वनस्य अन्ये मृगाः वनस्य अन्ये वनस्य इत्युक्ते षष्टिविभक्ति वनशब्दस्य वनं शब्दस्य षष्टिविभक्ति वनस्य अन्ये मृगाः मृगाः बहुवचनं रूपमस्ति मृगः शब्दस्य तस्य अन्ये अन्यशब्दस्य बहुवचनरूपमस्ति अन्ये अन्ये मृगाः तत्रापि विशेषणविशेषरूपमस्ति. कष्टम् अनुभवन्ति स्म. अनुभवन्ति इति रूपमस्ति. भूधातुतः याति भवन्ति. अनु उपसर्ग अस्ति. अनुभवन्ति कष्टं तदेव कष्टम् इति द्वितीया विभक्ति अस्ति. कर्मपदम्
यद्यपि तत्र भूधातुः भवति इति अकर्मकः अस्ति किन्तु अनुभवति इति सकर्मकः अस्ति.
सकर्मकः अस्ति तदेव द्वितीया विभक्ति कष्टम् इति.
कष्टम् इति समीचीनं भगिनि.
अतः एकदा ते मृगाः सम्भूय गत्वा बासुरकं प्रार्थितवन्तः. अतः अव्ययम् एकदा एकदा इत्युक्ते तदपि अव्ययम् अस्ति. एकदा ते मृगाः मृगाः शब्दस्य ते सः तौ ते बहुवचनरूपमस्ति. प्रथमा विभक्ति मृगाः बहुवचनरूपमस्ति. ते मृगाः विशेषणविशेषरूपं सम्भूय इत्युक्ते भूधातुतः आयाति सम्भूय सम् इति उपसर्गं मिलित्वा इति तत्र तस्य अर्थम् इति अहं मन्ये. मिलित्वा सम्भूय
किन्तु तत्र साक्षात् पदस्य रूपं किम्
सम्भूय
लेबन्तपदं
लेबन्तपदमस्ति.
समीचीनं
गत्वा अपि तदेव गत्वा बासुरकं गं धातुतः आयाति गत्वा. एकनिमिषं मया नोट्स् गं धातुतः त्वा प्रत्यय गत्वा गत्वा बासुरकं कर्मपदमस्ति. तत्र द्विवचनं प्रार्थितवन्तः बासुरकं प्रार्थितवन्तः प्रार्थितवन्तः तस्य तवतु प्रत्ययम् तवतु प्रत्यय बहुवचने प्रार्थितवन्तः. ते सर्वे ते मृगाः प्रार्थितवन्तः. किं प्रार्थित कं प्रार्थितवन्तः बासुरकं प्रार्थितवन्तः. ते अतः सिम्पल् साधारण वाक्यमस्ति कर्तुं शक्नोति अहम्. अतः एकदा ते मृगाः मिलित्वा गच्छन्ति. कुत्र गच्छन्ति बासुरकं प्रति गच्छन्ति अपि च बासुरकं प्रार्थितवन्तः इति द्वे वाक्यं करोमि. गत्वा इति तत्र अस्ति तदेव तस्य अहं द्वे वाक्यं करोमि. टु मेक् इट् सिम्पल् सेण्टेन्स् द्विवाक्यं. स्वामिन् विना कारणम् एव मृगाणां मारणेन भवतः कः लाभः? स्वामिन् सम्बोधनमस्ति. स्वामिन् शब्दस्य स्वामी स्वामिन् इति प्रापितधिकम् इति मन्ये. स्वामिन् स्वामिन् स्वामी स्वामिनौ स्वामिनः भव स्वामिन् या प्रातिपदिकं विना कारणम् एवं मृगाणां मारणेन भवतः कः लाभः विना इति शब्दस्य अव्ययमस्ति तद् तदेव तस्य उपयोगं कर्तुं समये कारणं द्वितीयाविभक्ति प्रयोगं करणीयं तदेव विना कारणम् इति तत्र अस्ति विना कारणम् एवं विना कारणम् एवं मृगाणां मारणेन भवतः कः लाभः विना कारणम् एवम् इत्युक्ते अव्ययः अस्ति परन्तु किं वदामि इट् इस् लैक् बीङ्ग् स्ट्रेस्ड् विना कारणम् एवम् एवं करेक्ट् महोदय इस् इट् ओके विना कारणम् एवं मृगाणां मारणेन
तत्र एवम् इति तत्र विना कारणस्य तेन सम्बन्धः नास्ति भगिनि तत्र एवं मृगाणां मारणेन नाम तत्र अस्तु तत्र हा ईदृशमारणेन तत्र मृगाणां मारणेन एवं मारणेन तत्र विना कारणं तत्र
ईदृशं मृगाणां मारणेन कः लाभः भवतः कः लाभः तत्र भवतः लाभः कः लाभः भवतः लाभः कः सर्वे तत्र कः लाभः भवतः कः लाभः किं वदामि भवतः कः लाभः इति भवतः शब्दः शब्दस्य षष्ठी भवान् शब्दस्य षष्ठीविभक्तिः अस्ति भवतः भवत् शब्दस्य कः प्रश्नवाचकशब्दः लाभः कर्ता वा भवतः शब्दस्य विशेषण लाभः
इति न किमर्थं भवतः इति षष्टि लाभः इति प्रथमविभक्तिः अस्ति खलु तत्र भवतः लाभः कः अस्ति कः अस्ति कः कः अस्ति इति
क्षम्यता
कः अस्ति
सम्यक् एकस्य एव मृगस्य खादनेन भवतः उदरं पूर्णं भवति किल एकस्य एव ओन्लि वन् लैक् स्ट्रेसिङ्ग् दट् एकस्य एव मृगस्य खादनेन भवतः षष्टिविभक्ति खादनेन तृतीयाविभक्ति मृगस्य षष्टिविभक्ति मृगशब्दस्य एकस्य एव मृगस्य खादनेन एकस्य तत्र संज्ञावाचकशब्दः वा पूर्ण वाट् इस् दट् अपि द वन् दट् यू लर्न् पूर्ण किं वदामि तत्र
तत्र वदतु तत्र एकः इति एकः मृगः तत्र सङ्ख्या वा पूर्णप्रत्ययान्तः
पूर्णप्रत्ययान्तः
कः अस्ति
एकः एकः पूर्णप्रत्ययान्तः नास्ति सम्यक् सङ्ख्या एव
सङ्ख्या एव एकः मृगः
एकस्य एव मृगस्य खादनेन भवतः उदरं भवतः सिंहस्य इति अर्थं भवतः उदरस्य पर्यायवाचकशब्दः कः अस्ति महोदय उदरं न जानामि भवतः उदरं पूर्णं भवति किल उदरं पूर्णं तत्र विशेषणविशेषभावमस्ति उदरं पूर्णं भवतः उदरं पूर्णं भवति किल इति प्रश्नवाचकशब्दः
जठरः इति अस्ति भगिनि
जठरः
जठराग्निः सत्यं जठराग्निः इति
जठरः पूर्णं भवति किल तो अतः अद्य आरभ्य भवतः आहारार्थं प्रतिदिनम् एकं मृगं वयमेव प्रेषयिष्यामः अतः अव्ययः अस्ति अद्य अपि अव्ययः अस्ति इदानीम् अद्य इदानीं वयमेव एकः मृगः भवतः भोजनार्थं प्रतिदिनं प्रेषयिष्यामः वयं सर्वे मिलित्वा एकमेव मृगः भवतः आहारार्थं वयमेव प्रेषयिष्यामः तत् किं व्याकरणविषये किं वदामि आहारार्थम् इति आहाराय इति भवितुम् अर्हति आहाराय प्रतिदिनम् एकं मृगं वयमेव प्रेषयिष्यामः इति भविष्यत्काले उत्तमपुरुषे बहुवचनरूपमस्ति प्रेषयिष्यामः प्रेषयामि प्रेषयिष्यामः इति अस्ति, भवान् तं मृगं खादतु, लोट्लकारे खादतु इति, भक्षतु इति वदति. भवान् तं मृगं, तम् इत्युक्ते वयम् एकमेव मृगं प्रेषयिष्यामः, तं मृगं भवान् खादतु भक्षतु इति वदति. अन्यान् मृगान् न पीडयतु इति, अन्यान् मृगान् त्यजतु, तस्य पीडनं न करोतु इति वदति. अन्यान् मृगान् तत्र अन्यान् मृगान् द्वितीयविभक्ति बहुवचनरूपम् अस्ति. अन्यान् मृगान् मृगः शब्दस्य बहुवचनरूपं द्वितीया विभक्ति. न पीडयतु, पीडयतु लोट्लकारे, पीडयतु अपि निजन्तरूपमेव अस्ति. तदा भासुरकः उक्तवान् तथैव अस्तु, तदा अव्ययमस्ति. भासुरकः कर्ता पदम्, उक्तवान् क्रियापदम्, उक्तवान् तवतु प्रत्यय पुल्लिङ्गे उक्तवान् प्रथमपुरुषे पुल्लिङ्गे उक्तवान् अस्ति. तथैव अस्तु, तथा एव अस्तु इति भासुरकः उक्तवान्. परन्तु यस्मिन् दिने, परन्तु अगेन् अव्यय, यस्मिन् दिने, यस्मिन् दिने इत्युक्ते दिने सप्तमी विभक्ति अस्ति दिनशब्दस्य. दिने, दिनः दिनम् इति वा दिने वा दिनः वा दिनः दिने दिनं दिने दिनानि दिने दिनं दिनम् इति नपुंसकलिङ्गे अस्ति सप्तमी विभक्ति. यस्मिन् यत् शब्दस्य सप्तमी विभक्ति अस्ति यस्मिन्, यस्मिन् दिने मम समीपं षष्टि विभक्ति अस्ति अस्मद् शब्दस्य. मम समीपं मृगः, समीपम् इति समीपम् अव्ययं वा समीपं कर्मपदं वा न अव्ययं नास्ति कर्मपदं. मम समीपं मृगः न आगमिष्यति, कोऽपि मृगः मम समीपे न आगमिष्यति इत्युक्ते लुट्लकारे भविष्यत्काले. तस्मिन् दिने, यस्मिन् दिने मम समीपं मृगः नागमिष्यति, तस्मिन् दिने सर्वानपि मृगान् मारयिष्यामि, सर्वानपि सर्वान् मृगकुलम् एव अहं नाशयिष्यामि इति तत्र वदति भासुरकः. वद उक्तवान् सर्वानपि, सर्वशब्दस्य सर्व बहुवचन द्वितीय बहुवचनरूपं सर्वान् अपि मृगान्, सर्वान् मृगान् मारयिष्यामि इति एव इति भासुरकः उक्तवान्. भासुरक मृगाः तत् अङ्गीकृतवन्तः. मृगाः बहुवचनरूपं कर्ता, मृगः शब्दस्य प्रथमपुरुषे बहुवचनरूपमस्ति मृगाः. तत् तत् इत्युक्ते भासुरकस्य वचनं, भासुरकस्य उक्तं वचनं तत् अङ्गीकृतवन्तः, अङ्गीकृतवन्तः. तत्र अपि बहुवचन तवतु रूपमस्ति, अङ्गीकृतवन्तः बहुवचनरूपमस्ति मृगाः इति, मृगाः अस्ति तदेव अङ्गीकृतवन्तः रूपम् आयाति अङ्गीकृतवन्तः. ततः आरभ्य प्रतिदिनं जातिक्रमेण एकः मृगः भासुरकस्य आहारत्वेन गच्छति स्म. ततः आरभ्य ततः आरभ्य मीन्स् तस्मात् दिनात् आरभ्य, आरभ्य ल्य प्रत्यय अस्ति, रब् धातुतः आयाति, आ उपसर्ग अस्ति तदेव ल्य प्रत्यय. आरभ्य प्रतिदिनं दिने दिने जातिक्रमेण इति अहम् उक्तवती, जातयः शृगालः, जातयः वानरः इति अपि जातरः जातयः सन्ति. तत् क्रमेण, जातिक्रमेण एकः मृगः, तत्र एकः मृगः, मृगः इत्यस्य विशेषणविशेषणमस्ति एकः मृगः भासुरकस्य षष्ठीविभक्ति भासुरकः भासुरकस्य एकवचनं रूपम्. आहारत्वेन आहाराय, आहाराय चतुर्थीविभक्ति गच्छति स्म, गच्छति गच्छति वर्तमानकाले स्म अस्ति तदेव, तत् भूतकाले इति मन्ये, गच्छति स्म. भासुरकः तं खादति स्म, भासुरक तम् इत्युक्ते तं मृगं, मृगं कोऽपि मृगं प्रेषितवन्तः, तं मृगं खादति स्म. अन्ये मृगाः निर्भयम् अरण्ये सञ्चरन्ति स्म. अन्ये मृगाः, मृगाः इति प्रथमपुरुष बहुवचनरूपम् अस्ति. अन्यशब्दस्य बहुवचनरूपं प्रथमपुरुष अन्ये अस्ति. अन्ये मृगाः विशेषणविशेषरूपम् अस्ति. निर्भयं भयं विना, निर्भयं भयं विना अरण्ये इत्युक्ते सप्तमे विभक्ति प्रथमपुरुष एकवचनरूपम् अस्ति. अरण्ये सञ्चरन्ति, सञ्चरन्ति इति धातुः अस्ति. किमर्थम् इत्युक्ते मृगाः बहुवचने अस्ति, तदेव सञ्चरन्ति इति रूपमायाति. चरन्ति सञ्चरन्ति, तत्र उपसर्ग उपयुज्य सञ्चरन्ति इति रूपमस्ति. सञ्चरन्ति स्म. कदाचित् जातिक्रमेण केनचित् चषकेन वासुरकस्य आहाररूपेण गन्तव्यम् आपतितम्. कदाचित् एकदा जातिक्रमेण जातिः क्रमः आश्रित्य केनचित् शशकेन, केनचित् शशकेन, शशकेन इति तृतीयविभक्तिः अस्ति. तस्य विशेषणविशेषरूपमस्ति केनचित् शशकेन. वासुरकस्य आहाररूपेण, आहाररूपेण गन्तव्यम् आपतितं. गन्तव्यम् इति तव्यत् प्रति प्रत्यय अस्ति. तदेव तृतीय किमर्थं कर्मणि प्रयोग अस्ति तत्र. केनचित् चषकेन आहाररूपेण गन्तव्यम् आपतितं. तस्य चषके, चषकेन न, तस्य उपरि क्रमम् आपतितं. सः चषकः दुःखेन सिंहसमीपं प्रस्थितवान्. सः चषकः दुःखेन, तृतीया विभक्ति भावतृतीया अस्ति तत्र. दुःखेन सिंहसमीपं, सिंहस्य समीपं प्रस्थितवान् गन्तुं, गन्तुं किमर्थं, किं वदामि, गन्तुं स्टार्ट् कर, हौ डु ऐ से, हि स्टार्टेड् टु गो, हौ डु ऐ से दट् महोदय, instead of prasthitavan, I want to use he started to go. Simha samipam prasthitava, prasthanam karoti, karo
tadrasham, astu bhagini, tadrasham prasthanam, ha
prasthanam krutavan. Marge ekah kupah asit, kupasya upari gamana samaye, marge itukte tatra saptami vibhakti, marge ekah kupah, तत्र कूपः इति कर्तापदमस्ति, कर्तृपदमस्ति. तत्र एकः कूपः विशेषविषयरूपम् आसीत्, भविष्यत्काले आसीत्. कूपस्य उपरि गमनसमये, कूपस्य उपरि, उपरि किम्, उपरि 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 सप्तमी विभक्ति वा, हा, कूपस्य उपरि गमनसमये शशकः, गमनसमये सप्तमी भक्ति शशकः स्वस्य प्रतिबिम्बं तत्र दृष्टवान्. स्वस्य षष्टिविभक्ति प्रतिबिम्बं दृष्टवान्, दृष्टवान् इति तवतु प्रत्ययः अस्ति. तत्र प्रतिबिम्बं दृष्टवान्, प्रतिबिम्बं कर्म कर्मपदमस्ति. प्रतिबिम्बं तत्र दृष्टवान्. तदा तस्य मनसि कश्चन उपायः स्फुरितः. तदा तत्समये तस्य मनसि, शशकस्य मनसि सप्तमी विभक्ति अस्ति, तस्य षष्टिविभक्ति. कश्चन इत्युक्ते कश्चन इत्युक्ते सं लैक् सर्टन् कश्चन उपायः इति कर्तृपदमस्ति. उपायः स्फुरितः इत्युक्ते आगतः, स्फुरितः तत् प्रत्यय. उपायः स्फुरितः, त प्रत्यय. अहं वासुरकम् एतस्मिन् कूपे पातयिष्यामि. अहम् अहमित्युक्ते शशकं, शशकं चिन्तितवान्. अहं वासुरकम् एतस्मिन् कूपे, एतस्मिन् कूपे, कूपे सप्तमी विभक्ति. एतस्मिन् अपि सप्तमी विशेषरूपमस्ति तत्र. एतस्मिन् कूपे पातयिष्यामि इति भविष्यत्काले निजन्तरूपं, पातयिष्यामि इति चिन्तयन् इति चिन्तयन् चिन्तितवान् सः विलम्बेन वासुरकस्य समीपं गतवान्. चिन्तयन् इति शत्रुप्रत्ययः अस्ति तत्र. चिन्तयन् पुल्लिङ्गे चिन्तयन् सः, सः इत्युक्ते शशकः विलम्बेन तत्रापि तृतीया विभक्ति अस्ति विलम्बेन बासुरकस्य समीपं गतवान् बासुरकस्य समीपं कर्मपदमस्ति गतवान् इति तवतु प्रत्यय पुल्लिङ्गशब्दे प्रथमपुरुषे अद्य मृगः समये न आगतः इति बासुरकः अतीव कुपितः अद्य अव्ययं मृगः इत्युक्ते अपि कर्तृपदं मृगः समये न आगतः समये तत्र सप्तमी विभक्ति समये न आगतः आगतः इति इक्तपदं तवत् न किं वदामि तपदम् आगतः आगतः मृगः तस्य विशेषणं मृगः आगतः समयेन आगतः इति बासुरकः अतीव कुपितः बासुरकः कर्तृपदमस्ति अतीव इति अव्ययमस्ति कुपितः इति अपि तपदम् अस्ति कुपितः तरूपम् अस्ति कुपितः कुपितः कः बासुरकः कुपितः आसीत् तदा शशकः मन्दं मन्दं गत्वा प्रणम्य तस्य पुरतः स्थितवान् तदा अव्ययपदं शशकः कर्तृपदं मन्दं 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 मन्दम् इति अव्ययपदमिति मन्ये मन्दः वा मन्दः शब्दमस्ति वा प्रातिपदिकं न जानामि मन्दं मन्दं हा मन्दं मन्दम् आम् मन्दः मन्दः शब्दस्य मन्दं मन्दं कर्मपदं मन्दं मन्दं गत्वा त्वा प्रत्यय प्रणम्य लेप् प्रत्यय तत्र नं धातुतः आयाति प्र उपसर्ग लेप् प्रत्यय प्रणम्य अणकार तत्र अस्ति रसाभ्यां नूनः समानपदे न प्रणम्य तत्र अन्यानि सूत्राणि अस्ति उपदेश उपसर्गात् समासेपि सन्ति तत्सूत्रमस्ति तदेव न आयाति प्रणम्य तस्य पुरतः तस्य षष्टिविभक्ति पुरतः स्थितवान् पुरतः अस्ति तदेव तस्य आयाति षष्टिविभक्ति आयाति तस्य पुरतः स्थितवान् स्थितवान् अपि तवतु प्रत्यय स्थितवान् अभिमुखं तस्य अभिमुखं गतवान् इति वक्तुं शक्नुमः तं तर्जयन् बासुरकः उक्तवान् तं तर्जयन् तम् इत्युक्ते शशकं तर्जयन् तर्जयन्तम् इत्युक्ते द्वितीया विभक्ति प्रथमपुरुषे किं तर्जयन् इत्युक्ते तत्र किं वदामि तर्जयन् तुमुन् प्रत्यय तर्जय न शत्रन्त तर्जयन् बासुरकः उक्तवान् बासुरक कर्तृपदमस्ति उक्तवान् वचुधातुतः आयाति तव तव तु प्रत्यय उक्तवान् रे शशक धम तत्र सम्बोधनं रे शशक धम इत्युक्ते शशक अधम अधमशशकः अधमशशकः समये आगन्तव्यम् इति परिज्ञानं नास्ति वा भवतः भवतः इति षष्टिविभक्ति अस्ति भवतः परिज्ञानं नास्ति वा परिज्ञानम् इत्युक्ते कर्मपदमस्ति परिज्ञानं कर्मपदं वा भवतः परिज्ञानं नास्ति वा समये आगन्तव्यम् इति समये सप्तमीविभक्ति आगन्तव्यम् इति तव्यक् प्रत्यय अस्ति इति परिज्ञानं नास्ति वा भवतः भवान् भवन्तः भवतः तृतीया विभक्ति तृतीयादने ऐ थिङ्क्
भवतः षष्ठी खलु
षष्ठीया भवतः परिज्ञानं करेक्ट् भवतः परिज्ञानं नास्ति वा इति
भवतः इति षष्ठी परिज्ञानं नास्ति वा अस्ति इति धातुः
परिज्ञानमिति कर्मपदमस्ति
न न कर्तृपदम् अस् धातुः अस्ति अस्ति तु अकर्मकः
नास्ति आम् 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 सम्यक् महोदय आम् क्षम्यतां परिज्ञानं नास्ति वा भवतः परिज्ञानमिति नपुंसकलिङ्गे अस्ति वा परिज्ञानं ज्ञानं ज्ञाने ज्ञानानि आम् आम् नपुंसकलिङ्गे अस्ति, तत्र परिज्ञानं नास्ति वा भवतः इति उक्तवान्, भवान् विलम्बं कृतवान् किल पृच्छति, शशकं पृच्छति, विलम्बं कृतवान् किल भवान् विलम्बम् इति विलम्बम् इति तत्र तत्र कर्मपदम् अस्ति न महोदय, कर्मपदं कृतवान् विलम्बं कृतवान् किल इति पृच्छति, अतः प्रथमं भवन्तं खादित्वा अनन्तरं सर्वं मृगकुलमेव नाशयिष्यामि इति, अतः अव्ययपदं प्रथमं भवन्तं खादित्वा भवन्तं द्वितीया विभक्ति प्रथमपुरुषे भवन्तं प्रथमं प्रथमं तत्र पूर्णप्रत्ययान्तरूपमस्ति, प्रथमं प्रथमं खादयित्वा खादित्वा इत्युक्ते त्वा प्रत्यय खादित्वा अनन्तरं सर्वं मृगकुलमेव नाशयिष्यामि, सर्वं मृगकुलम् एव नाशयिष्यामि, मृगकुलं सर्वं मृगकुलं तत्र विशेषविशेषमस्ति एव अव्ययं नाशयिष्यामि भविष्यत्काले निजन्तरूपमस्ति नाशयिष्यामि इति तत्पश्चात् ओ मै गाड् इट्स् मोर् देन् वन् अवर्. तदा शशकः विनयेन उक्तवान्, तदा अव्ययं शशकः कर्तृपदं विनयेन तृतीया विभक्ति विनयशब्दस्य विनयेन उक्तवान् स्वामिन् मया अपराधः न कृतः, स्वामिन् सम्बोधनं मया अपराधः न कृतः, कृतः अपराधः मया न, तत्र कर्मणि रूपमस्ति तत्र तदेव मया इति तृतीया विभक्ति मया अपराधः न कृतः इति रूपमस्ति, भवतः समीपं समये आगन्तव्यम् इत्येव अहं प्रस्थितः, भवतः समीपं षष्टिविभक्ति समीपं समये आगन्तव्यं सप्तमी विभक्ति समये आगन्तव्यम् इत्युक्ते तव्यत् प्रत्ययः गम् शातुतः आ उपसर्गमस्ति, आगन्तव्यम् इति एव अहं प्रस्थितः, प्रस्थितः त प्रत्ययः अस्ति तत्र, भवतः प्रस्थितः त प्रत्ययः अस्ति तत्र विशेषविशेषरूपमस्ति, परन्तु मार्गे अन्यः एकः सिंहः आसीत्, परन्तु अव्ययं मार्गे सप्तविभक्ति अन्यः एकः सिंहः सर्वे तत्र विशेषविशेषरूपम् अस्ति, अन्यः एकः सिंहः आसीत्, सः मां दृष्ट्वा तत् सिंहं सः इत्युक्ते सिंहः तत् सिंहं मां दृष्ट्वा दृष्ट्वा इत्युक्ते दृष्ट्वा ल्य प्रत्यय न किं त्वा प्रत्यय दृष्ट्वा त्वा प्रत्यय पृष्टवान् तव तु प्रत्ययः अस्ति पृष्टवान् भवान् कुत्र गच्छति इति भवान् भवान् इत्युक्ते शशकः कुत्र गच्छति इति कुत्र अव्ययमस्ति न कुत्र अव्ययम् आम् कुत्र गच्छति इति पृच्छति वासुरकस्य आहारार्थं गच्छामि वासुरकस्य षष्टिविभक्ति आहारार्थम् इति आहाराय तस्य चतुर्थी विभक्ति अस्ति गच्छामि उत्तमपुरुष प्रथम पुरुष वर्तमानकाले प्रथम वचनं एकवचनं उत्तमपुरुषस्य एकवचनरूपमस्ति गच्छामि इति अहम् उक्तवान् तदा सः उक्तवान् एतत् मम अरण्यम् एतत्तु अव्ययं मम इति षष्टिविभक्ति अरण्यम् इति प्रथमपुरुषरूपमस्ति अरण्यं मम अरण्यम् अत्र सर्वे अपि मृगाः मम आज्ञान् पालयेयुः अत्र इदा सर्वे अत्र अव्ययं सर्वे बहुवचनरूपमस्ति प्रथमपुरुषे प्रथमाविभक्ति बहुवचनरूपमस्ति सर्वे अपि अव्ययं मृगाः सर्वे मृगाः विशेषविशेषरूपमस्ति मृगाः बहुवचनमस्ति मम आज्ञा मम षष्टिविभक्ति आज्ञां पालयेयुः आज्ञाम् इति कर्मपदम् आज्ञा आम् आज्ञां कर्मपदं पालयेयुः तत्र विधिलिङ्गलकारे अस्ति बहुवचने पालयेयुः तत्र पालयति पालयेयुः निजन्तरूपम् अस्ति. बासुरकः कुत्र अस्ति? बासुरकः कर्तृपदं कुत्र अस्ति? सः चोरसिंहः स्यात्. सः इत्युक्ते बासुरकः चोरसिंहः इति सिंहः चोरः अस्ति. यः सिंहः चोरः अस्ति सः चोरसिंहः इति अहं मन्ये. चोरसिंहः स्यात्. भवान् तम् अत्र आनयतु. भवान् तत् सिंहम् अत्र आनयतु. आनयतु इति लोट्लकारे अस्ति. आनयतु, भवान् आनयतु, प्रथमपुरुष एकवचनरूपम् अस्ति. आनयतु, आ उपसर्गः अस्ति. नयतु, आवयोः मध्ये युद्धं भवतु. आवयोः इत्युक्ते द्वितीयाविभक्ति षष्ठी रूपम् अस्ति. आवयोः मध्ये तत्र सप्तमी विभक्ति अस्ति. मध्ये युद्धं भवतु. युद्धं युद्धम् आवयोः मध्ये युद्धं भवतु. आम्, युद्धम् इति कर्तृपदं. युद्धं भवतु तदपि लोट्लकारे अस्ति. युद्धे यः जयति सः एव भवन्तं खादतु इति. युद्धे सप्तमी विभक्ति. यः जयति सः एव जयति सप्तमी विभक्ति अस्ति. न जयति इत्युक्ते जयति किं धातु अस्ति तत्र? जय जी धातु वा? जी जयति प्रथमपुरुष रूपमस्ति. यः जयति नाट् प्रथमपुरुष एकवचनरूपं जयति. सः एव भवन्तं खादतु इति. भवन्तं खादतु, भवान् भवन्तौ भवन्तं द्वितीयाविभक्ति. खादतु इति लोट्लकारे खाद् धातुतः आयाति इति. तस्य सूचनानुसारम् अहम् अत्र आगतवान्. तस्य सूचना, तस्य षष्टिविभक्ति. सूचना अनुसारं, तस्य सूचनायाः अनुसारं समस्तपदमिति अहं मन्ये. सूचनानुसारम् अहम् अत्र आगतवान्. अतः एव विलम्बः जातः इति. अतः अव्ययपदम् एव अव्ययं. विलम्बः जातः तत्र किं वदामि? तप्रत्ययः अस्ति. जातः विलम्बः जातः तस्य विशेषणविशेषमस्ति इति. एवम् एवं तर्हि तं सिंहम् इदानीम् एव मारयामि. एवम् इति आश्चर्येण सिंहः वदति. तर्हि तं सिंहम् इदानीम् एव मारयामि. अव्ययम् अस्ति. तर्हि तं सिंहं द्वितीयविभक्ति. तं सिंहम् इदानीम् अव्ययपदमस्ति. इदानीम् एव अव्ययं मारयामि इति निजन्तप्रयोगम् अस्ति. मृशब्दस्य मार धातुतः आयाति. मारयामि. सः कुत्र अस्ति इति पृच्छति. सः कुत्र अस्ति? सः इत्युक्ते अन्यः सिंहः कुत्र अस्ति इति पृच्छति. प्रदर्शयतु इति वासुरकः उक्तवान्. प्रदर्शयतु, दर्शयतु, प्रदर्शयतु. प्र उपसर्ग अस्ति. दृष् धातुतः आयाति इति अहं मन्ये. दर्शयतु लोट्लकारे प्रथमपुरुषे एकवचने लोट्लकाररूपम् इति वासुरकः उक्तवान्. तव तु प्रत्ययः उक्तवान्. पुल्लिङ्गशब्दे एकवचने उक्तवान्. शशकः तं कूपसमीपं नीतवान्. शशकः कर्तृपदमस्ति. तं सिंहं, तम् इत्युक्ते सिंहं द्वितीयविभक्ति कर्मपदं. कूपसमीपं नीतवान्. कूपसमीपम् इति द्वितीयाविभक्ति. नीतवान् तव तु प्रत्ययः अस्ति. पुल्लिङ्गे प्रथमपुरुषे कूपं प्रदर्शितवान्. कूपम् अपि द्वितीयाविभक्ति. प्रदर्शितवान्, दर्शितवान्, प्रदर्शितवान् इति तव तु प्रत्ययः अस्ति. बासुरकः तत्र जले स्वस्य प्रतिबिम्बं दृष्टवान्. बासुरकः तत्र जले, तत्र अव्ययं जले सप्तमी विभक्ति. स्वस्य षष्टिविभक्ति. प्रतिबिम्बं तस्य कर्मपदं दृष्टवान्. इत्युक्ते किं वदामि? तव तु प्रत्यय. क्रोधेन गर्जनं कृतवान्. क्रोधेन इति तृतीया विभक्ति अस्ति. गर्जनं कृतवान् तव तु प्रत्यय अस्ति. तदेव क्रोधेन तृतीया विभक्ति कर्मणि प्रयोगे अस्ति. क्रोधेन गर्जनम् इति गर्जनम् इति कर्मपदं न कर्तृपदं वा गर्जनं आम् क्रोधेन गर्जनं कृतवान् कूपतः इतोपि उच्चैः प्रतिध्वनिः आगतः कूपतः कूपतः इत्युक्ते पञ्चमीविभक्ति कूपतः इतोपि इतः अपि उच्चैः उच्चैः इति अव्ययमस्ति प्रतिध्वनिः प्रतिध्वनिः इति कर्तृपदम् एव प्रतिध्वनिः आगतः आगतः इक्ताप्रत्यय आगतः इति इक्ताप्रत्ययः प्रतिध्वनिः आगतः तस्य विशेषणविशेषरूपं भवति भासुरकः तं प्रतिबिम्बम् एव स्वस्य प्रतिस्पर्धिनीं मत्वा तं मारयितुं तस्य उपरि आक्रमणं कृतवान् भासुरकः तत् प्रतिबिम्बम् एव भासुरकः तं प्रतिबिम्बम् एव प्रतिबिम्बं तं प्रतिबिम्बं विशेषणविशेषरूपम् अस्ति द्वितीया विभक्ति एव स्वस्य षष्ठीविभक्ति प्रतिस्पर्धिनीं स्पर्धिनम् इति कर्मरूपम् इति मन्ये प्रतिस्पर्धिनं द्वितीया विभक्ति इति मन्ये मत्वा इति लेप् प्रति न न त्वा प्रत्यय मत्वा तं मारयितुं मारयितुं तुमुन् प्रत्ययः अस्ति तदेव तम् आयाति तत्र द्वितीया विभक्ति तं मारयितुं तस्य उपरि षष्ठीविभक्ति उपरि सप्तमी विभक्ति आक्रमणं कृतवान् आक्रमणम् इति कर्मपदम् इति अहं मन्ये क्रमणम् आक्रमणः क्रमणं कृतवान् तव तु प्रत्यय कूपमध्ये पतितः सः जले निमग्नः मृतः च कूपमध्ये सप्तमी विभक्ति पतितः इति तव तु प्रत्ययः प्रत्ययः सः सः पतितः तत्र विशेषविशेषरूपमस्ति जले सप्तमी विभक्ति निमग्नः इति निमग्नः अपि तप्रत्यय मृतः अपि तप्रत्यय निमग्नः मृतः च इति पतितः निमग्नः मृतः सर्वे तप्रत्यय इति अहं मन्ये सः तस्य विशेषणम् इति अहं मन्ये तदेव महोदय धन्यवादः कोऽपि त्रुटिः अस्ति चेत् क्षम्यतां महोदय
चिन्ता मास्तु भगिनी उत्तमम् आसीत् उत्तमम् अस्ति तत्र श्लाघनीयः अस्ति तत्र श्लाघनीया भवती अस्ति अतः तत्र एकवारं तत्र धन्यवादः भगिनी बहु समीचीनमस्ति भवती तत्र परिश्रमेण तत्र कार्यं कृतवती अहमपि दृष्टवान् भवती तत्र कति पुटानि लिखित्वा प्रेषितवती समीचीनमस्ति भगिनि
चिन्ता
मास्तु
धन्यवादः
समीचीनम् उत्तमम् अस्तु अस्तु तर्हि तत्र कथा तु दीर्घा अस्ति पुटत्रयमेव अस्ति किन्तु तत्र अनेकाः विषयाः सन्ति अनेके विषयाः सन्ति सर्वान् विषयान् तत्र न वक्तुं शक्नुमः इति कृत्वा तत्र मध्ये मध्ये किञ्चित् भवती उक्तवती समीचीनं भगिनि धन्यवादः अपि प्रथमवारम् एतत् अभवत् वर्गे अतः तत्र किम् उदाहरणं पूर्व उदाहरणम् अस्ति चेत् वयं जानीमः तु एतत् करणीयम् एतत् न करणीयम् इति किन्तु प्रथमवारं यत् कुर्मः तत्र न जानीमः तत्र किं करणीयं किं न करणीयम् इति अतः उत्तमम् आसीत् भगिनि धन्यवादः धन्यवादः भवती किं धैर्यशाली आसीत् धैर्यशालिनी आसीत् किमपि नास्ति भगिनि समीचीनं भगिनि उत्तमम् अस्तु तर्हि अस्तु भगिनि अस्तु अस्तु धन्यवादः अस्तु इदानीं तत्र प्रश्नाः सन्ति वा अथवा अन्य कोऽपि किं वदन्ति
न महोदय उत्तमं भगिनि वेदा
धन्यवादः
परिश्रमेण कृतवती
तत्र परिश्रमं बहु परिश्रमं कृतवती
सर्वाणि पदानि स्पष्टानि लिखितानि
समीचीनं भगिनि धन्यवादः
सम्यक् उक्तवती
धन्यवादः भगिनी धन्यवादः
बहु सम्यक्
तदेव अहं कारणम् इति शब्दस्य विवरणं वंशीसुधा भगिनी पृष्टवती
ओ अस्तु
किमस्ति भगिनी न श्रुतवती
शब्दस्य
ओ कारणं शब्दस्य वा अस्तु अस्तु प्रेषितवती अस्तु
तद् एतत्
कथायाम् अस्मिन् कथायाम् अस्ति सत्यं
तदेव तस्य विवरणं कुत्रापि न
प्राप्तं
न लब्धवती तदेव अहं तं पृष्टवती
ओ अस्तु अस्तु क्षम्यता किञ्चित् विलम्बेन प्रेषितवती परन्तु समयस्य पूर्वमेव प्रेषितवती
अस्तु समीचीनम् अस्तु धन्यवादः भगिनि अपि तत्र भवती प्रायः श्रान्ता अस्ति इदानीं तत्र एकघण्टा यावत् भवती उक्तवती तत्र किं किमपि पिबतु सत्यं भगिनि सत्यं हा 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 समीचीनं समीचीनं भगिनि समीचीनं
संस्कृते
हा तत्र अभ्यासः आवश्यकः सत्यं समीचीनम् उत्तममासीत् भगिनि धन्यवादः धन्यवादः भगिनि अस्तु इदानीं तत्र तत्र अग्रे सरामः तर्हि तत्र उपस्थापनस्य अनन्तरम् इदानीमपि किञ्चित् समयः अस्ति अतः तत्र तस्य उपयोगं कुर्मः तर्हि धन्यवादः भगिनिभेदा भगिनी धन्यवादः अस्तु इदानीं तत्र पूर्णप्रत्ययान्ताः इति विषयः यः आसीत् तं विषयम् अधिकृत्य तत्र अभ्यासाः सन्ति तत्र पुटसङ्ख्या अस्ति तत्र 370 पुटे तत्र प्रायशः उपरि यः अभ्यासः अस्ति तम् अभ्यासं कृतवन्तः किन्तु इदानीं तत्र अधोभागे तत्र तृतीय अभ्यासः तं कुर्मः इति मन्ये अस्तु तर्हि तत्र आरम्भं कुर्मः तर्हि तत्र नरेश महोदय आरम्भं करोति वा तत्र तृतीय अभ्यासः
आं महोदय वर्षे प्रतिमासम् अपि कानिचन विशेषदिनानि भवन्ति अत्र तादृशानि कानिचन दिनानि निर्दिष्टानि सन्ति तानि कदा भवन्ति इति यथोदाहरणं वाक्यरूपेण लिखत प्रथम तु जनवरी मासः द्वादश विवेकजयन्ति जनवरी मासस्य द्वादशे दिनाङ्के विवेकानन्दजयन्ति भवति द्वितीय जनवरी मासस्य षड्विंशतितम दिनाङ्के गणतन्त्रदिनं भवति
षड्विंशति तत्र पूर्णप्रत्ययान्तः अस्ति चेत् केवलं विंशति इति न खलु महोदय विंशतितम हा तत्तु विभक्ति तत्र विभक्ति का
तत्तु प्रथमविभक्ति
किन्तु उदाहरणे
का विभक्ति सप्तमी विभक्ति षड्विंशतितमे दिनाङ्के
हा जनवरी मासस्य षड्विंशतितमे दिनाङ्के
तमे दिनाङ्के गणतन्त्रदिनं भवति
हा गणतन्त्रदिनं भवति समीचीनं महोदय अस्तु अग्रे प्रिया भगिनी
नमस्ते महोदय
नमस्कारः भगिनि
जनवरी मासस्य क्षम्यतां मार्च् मासस्य प्रथमे दिनाङ्के विश्ववनितादिनं भवति
विमेन्स् डे भगिनि वर्ल्ड् विमेन्स्
अस्तु अस्तु
वनिता महिला
अग्रे एप्रिल् मासस्य चतुर्दशे दिनाङ्के अम्बेड्कर जयन्ती भवति
हा चतुर्दशे दिनाङ्के अम्बेड्कर जयन्ती भवति अस्तु समीचीनं भगिनि अस्तु अशोभा भगिनी अग्रे
आं महोदय तत्र मयि मासः तत्र विश्वकार्मिकदिनम् इति अस्ति तत्तु प्रथमे क्षम्यतां मयि मासस्य प्रथमे दिने अथवा प्रथमे दिनाङ्के विश्वकार्मिकदिनम् अस्ति जुलै मासः अपि च विश्वपर्यावरणदिनं विश्वपर्यावरणदिनं वा महोदय
पर्यावरणम् एन्वायरन्मेण्ट् भगिनि
अस्तु किन्तु तत्र पर्यावरणम् इति अस्ति वा महोदय
पर्यावरणं
सन्धिः भूत्वा इति
प्रायशः सत्यं भगिनि
तत्र जुलै मासः
पर्य आवरणमपि अस्तु न जनम्
आवरणम् इति मन्ये महोदय
सत्यं सत्यं
जुलै मासस्य तत्र पञ्चमम् अस्ति पञ्चमे दिनाङ्के विश्वपर्यावरणदिनं भवति
समीचीनं भगिनि अस्तु वंशी सुधा भगिनी अग्रे
आं महोदय षष्ठः अभवत् न षष्ठः सप्तमः अस्तु सप्टेम्बर् मासे पञ्चमे दिनाङ्के अध्यापकदिनम् भविष्यति अभवत्
अभवत् इदानीम् अभवत् अस्तु
सप्टेम्बर् मासे पञ्चमे दिनाङ्के अध्यापकदिनम् अभवत् नवम्बर् मासे
अथवा मासस्य इति तत्र षष्टि सप्तमेपि भवति सप्तमेपि भवति
नवम्बर् मासस्य दिनाङ्क नवम्बर् मासस्य चतुर्दशे दिनाङ्के बालदिनं भविष्यति
समीचीनं भगिनि उत्तमम् अस्तु वेदा भगिनि इदानीं तत्र भवतीं न पृच्छामि अस्तु तत्र किन्तु तत्र निमिषद्वयान् तदनन्तरं यदि भवती वक्तुम् इच्छति तदा वदतु इदानीम् अहं
शुद्धा अस्मि
अस्तु भगिनि अस्तु अस्तु अतः तर्हि तत्र अग्रिमपुटे तत्र नूतन अभ्यासः अस्ति तत् तस्य आरम्भं करोतु तर्हि
आम् महोदय अधः प्रधानमन्त्रिणः प्रवासयोजना दत्ता अस्ति अधः प्रधानमन्त्रिणः प्रवासयोजना दत्ता अस्ति एतस्याः आधारेण सः कस्मिन् दिनाङ्के कुत्र भविष्यति इति लिखत एतस्याः आधारेण सः कस्मिन् दिनाङ्के कुत्र भविष्यति इति लिखत प्रथमतः देहलीतः प्रस्थानं प्रधानमन्त्री प्रथमे दिनाङ्के देहलीतः प्रस्थानं करोति सः द्वितीयदिनाङ्के लखनौनगरे भविष्यति चतुर्थदिनाङ्के पटनानगरं भविष्यति पटनानगरे भविष्यति
समीचीनं
सप्तमी दिनाङ्के गुवाहाटीनगरे भविष्यति
गुवाहाटीनगरे भविष्यति समीचीनं भगिनि अस्तु अग्रे लक्ष्मी भगिनि
अत्र द्वितीयदिनाङ्के लखनौ नगरात्
नगरे
केवलं सत्यं भगिनि तत्र प्रायशः अभ्यासे तत्र एतदपि तत्र
चतुर्थे दिनाङ्के पाट्नानगरं पाट्नानगरे भविष्यति
पाटननगरं प्राप्नोति किन्तु अत्र केवलं कस्मिन् दिनाङ्के कुत्र भविष्यति इति एव लिखत इति अस्ति भगिनि अतः
अधोभागे उदाहरणम् अस्ति महोदय प्रधानमन्त्री प्रथमे दिनाङ्के देहलीतः प्रस्थानं करोति
केवलं तदस्ति तदनन्तरं
लखनौनगरं भविष्यति
इति एव अस्ति कुत्र भविष्यति कस्मिन् दिनाङ्के कुत्र भविष्यति इति एव लेखनीयमस्ति भगिनि.
अस्तु.
इदानीं तत्र कोल्कत्ता
सः नवमे दिनाङ्के कोल्कत्ता नगरात् प्रस्थानं करोति.
कोल्कत्ता नगरे भवति तावदेव भगिनि.
कोल्कत्ता नगरे भविष्यति.
भविष्यति भविष्यति. हा समीचीनम्. अग्रे अग्रिमं भुवनेश्वरं.
सः दशमे दिनाङ्के भुवनेश्वरं नगरे भविष्यति.
भुवनेश्वरनगरे भविष्यति. समीचीनं भगिनि. अतः तत्र केवलं तत्र सुलभः अभ्यासः किन्तु समीचीनमेव. अस्तु अग्रे नरेश् महोदय.
सः द्वादश दिनाङ्के भाग्यनगरे भविष्यति.
भाग्यनगरे इति कोऽपि जानाति वा? हैदराबाद् हैदराबाद् अस्ति भाग्यनगरम्. किन्तु नाम तु भाग्यनगरम् इति एव. अस्तु अग्रे महोदय.
चतुर्दशे दिनाङ्के चेन्नैनगरे भविष्यति.
चेन्नैनगरे भविष्यति. समीचीनम्. अस्तु प्रिया भगिनी अग्रे.
आं महोदय. सप्तदशे दिनाङ्के तिरुवनन्तपुरं पुरनगरे भविष्यति.
अग्रिमं.
नवदशे दिनाङ्के बेङ्गलूरुनगरे भविष्यति. नगरं भविष्यति.
नगरे नगरे एव.
ओ नगरे.
आं नगरे नगरे एव. नगरे भविष्यति. समीचीनं. शोभा भगिनी.
विंशतितमे दिनाङ्के मुम्बयीनगरे भविष्यति. तत्र महोदय विंशतितमे अथवा विंशे दिनाङ्के इति अपि समीचीनं.
सत्यं भगिनि. सत्यम्.
अपि च द्वादशविंशतितमे अथवा द्वादशविंशे
न द्वादश न द्वाविंशः.
द्वाविंशे क्षमतां. द्वाविंशे द्वाविंशतमे विंशतितमे अथवा द्वाविंशे दिनाङ्के भोपालं नगरे भविष्यति.
भोपालनगरे इति समस्तपदं
किल. भोपालनगरे भविष्यति.
नो चेत् तत्र भोपाले नगरे इति भवेत्.
भोपाले सम्यक् अस्ति वा तादृशं महोदय? भोपाले नगरे इति अस्तु.
तत्र भोपालमस्ति चेत् तत्र नगरं नाम अस्ति तत्र विशेषणम् इति चिन्तयितुं शक्नुमः. अतः भोपाले नगरे इति. किन्तु समस्तपदं कुर्मश्चेत् उत्तमं भवति.
आम् महोदय.
अस्तु अग्रे वंशी सुधा भगिनि.
आम् महोदय. चतुर्विंशतितमे दिनाङ्के अहं
शोभा भगिनी किम् उक्तवती? क्षम्यताम्.
न मम प्रश्नः आसीत् महोदय, भवान् उत्तरं दत्तवान्, धन्यवादः.
अस्तु अस्तु.
भोपाले नगरे इति अपि भवितुम् अर्हति वा इति मनसि क्लेशः आसीत्.
इति चिन्तयामि भगिनि. भोपाले नगरे इति वक्तुं शक्नुमः इति मन्ये भगिनि.
आम् महोदय.
यतोहि तत्र नदी अस्ति, कावेर्याः नद्याः इति तत् तादृशं प्रयोगः भवति खलु.
अधुना स्पष्टं महोदय.
आम् महोदय, वदामि वा? अस्तु. चतुर्विंशतितमे दिनाङ्के सः कर्णावतीनगरे भविष्यति.
कर्णावती किमस्ति?
कर्णावतीनगरे
एक समस्तपदं.
समस्तपदं न, कर्णावतीनगरे इति वक्तुं शक्यते.
तदेव करोतु.
कर्णावती
न तत् मा करोति, यतोहि तत्र विशेषभावः नास्ति. तत्र नगरं तु नपुंसकलिङ्गे अस्ति. कर्णावती इति तु
कर्णावती कर्णावती
ओ तत् न
जानामि भगिनि.
कर्णाटका
वा?
न अहं चिन्तयामि अहमदाबाद् अस्ति.
ओ अस्तु अस्तु सत्यं. अस्तु अस्तु भवान् उक्तवान् कर्णावती इति. अस्तु अस्तु.
नवविंशतितमे दिनाङ्के
त्वं चण्डीगढ नगरे न त्वं न वद त्वं भव चण्डीगढनगरे भविष्यसि इति न वदामि वा
अस्तु अस्तु तत्र सः इति आसीत् अतः अस्तु
त्वम्
अस्तु 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 त्वम् अपि समीचीनमेव भगिनि अस्तु अन्तिमं करोतु
अस्तु विंशतितमे दिनाङ्के त्रिंशतितमे दिनाङ्के वयं श्रीनगरे भविष्यामः
इति समीचीनं भगिनि अस्तु अस्तु उत्तममेव भगिनि तत्र सर्वदा किमर्थम् एकवचने उत्तमपुरुषः
प्रथमपुरुषः
परिवर्त्य सत्यं भगिनि समीचीनमेव अस्तु अस्तु अग्रे लक्ष्मी
प्रश्नः अस्ति
वदतु महोदय
अत्र दिनाङ्कः अस्ति दिनाङ्के वयं पुल्लिङ्ग प्रयोग कर्तुं शक्नोति अपि स्त्रीलिङ्ग त्रिंशत्तमे त्रिंशत्तमी किं प्रयोगम्
हा महोदय किन्तु अत्र तु तत्र किं कुर्मः तत्र त्रिंशत्तम इति अस्तु तत्र
दिनाङ्कः तु
पुल्लिङ्गः अस्ति पुल्लिङ्गः यदि त्रिंशत् तमी आसीत् चेत् तत्र किं त्रिंशत्तम्यां नद्यां तादृशं रूपं भवति
त्रिंशत्तमे दिनाङ्के
इति सत्यं महोदय
त्रिंशत्तम्यां नदी इति भवितुम् अर्हति किल
नद्यां त्रिंशत्तम्यां नद्यां
त्रिंशत्तम्यां नद्याम् अथवा त्रिंशत्तम्यां बालिकायाम् इति
सत्यं सत्यं भगिनि तथैव तत्र दृष्टवन्तः खलु तत्र विशेषणं
अहं न आसं महोदय
ओ अस्तु अस्तु भगिनि अस्तु 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 अतः तत्र कोष्टकमस्ति तत्र एकसप्ततितमे पुटे
दृष्टवती महोदय पठितवती अपि च ध्वनिमुद्रणं श्रुतवती
किन्तु सत्यं भगिनि तत्र नद्याम् अस्ति चेत् तत्र त्रिंशतितम्यां नद्याम् इति इति एव रूपं समीचीनं भगिनि अस्तु तर्हि धन्यवादः भगिनि अस्तु अग्रे तत्र लक्ष्मी भगिनी अग्रिमं आरम्भं करोतु भगिनि लक्ष्मी भगिनी
महाभारतयुद्धे कदा कः कः केन हतः इति अत्र सूचितम् अस्ति यतोदाहरणं वाक्यानि रचयत उदाहरणं प्रथमे दिने श्वेतः भीष्मेन हतः अनन्तरं द्वितीये दिने शक्रदेवः भीष्मेन हतः चतुर्थे दिने गजसेना भीष्मेन हतः
भीमेन
हतः
अस्तु तत्र अस्तु प्रथम अस्तु
पञ्चमे दिने
वदतु भगिनि
सात्यकिः दश सात्यकेः दशपुत्राः भूरिश्रवसा हतः
तत्र भूरिश्रवसा समीचीनं भगिनि भूरिश्रवस् इति भूरिश्रवसा समीचीनं प्रायशः तत्र हताः इति यतोहि बहुवचनम् अस्ति
पुत्राः इति
अतः हताः इति समीचीनं भगिनि अस्तु अग्रे धन्यवादः भगिनि अग्रे वेदा भगिनि
महोदय शङ्खः द्रोणः सप्तमे दिने द्रोणेन शङ्खः हतः
समीचीनं समीचीनं भगिनि अस्तु अग्रिमम्
इराबान् अलम्बुषः अष्टमे दिने अलम्बुषेन इराबान् हतः
अग्रिमं
दशमे दिने अर्जुनेन भीष्मः दशमे दिने पातितः किं
भीष्मः अर्जुनेन समीचीनं भगिनि अस्तु तावदेव समीचीनं भगिनि अस्तु अग्रे नरेश महोदय
क्षम्यतां महोदय, मया गन्तव्यं, धन्यवादः.
अस्तु भगिनि, अस्तु भगिनि, नमस्कारः भगिनि, धन्यवादः भगिनि, नमस्कारः.
महोदय एकः प्रश्नः, इरावान् अपि अलम्बुषः इति के स्तः महोदय, के न कौ कौ स्तः?
न स्मरामि भगिनि तत्र, हा महाभारते तत्र
अधुना मम पतिः कुरुक्षेत्रं अस्ति.
ओ इति वा भगिनि?
महाभारतं सीरियल् आसीत् किल महोदय
पूर्वम्? आमाम् अहं दृष्टवान्, बहु समीचीनम् अस्ति.
अधुना यूट्यूब् मध्ये अस्ति, सः कुरुक्षेत्रयुद्धमेव पश्यन्
अतः तं पृच्छतु भगिनि.
पृच्छामि महोदय,
किन्तु बहु उत्तमम् अस्ति भगिनि, अहं दृष्टवान्. अपि तत्र हिन्दी भाषायां तत्र पश्यामश्चेत् उत्तममस्ति, तत्र उपशीर्षकः तत्र अधोभागे अस्ति खलु?
हिन्दी एव महोदय,
हिन्दी एव.
अहं न चिन्तयामि, सः अपि जानाति इति. इरावान् अपि अलम्बुषः
प्रायशः तत्र न
श्रुतवान्.
हा न नास्ति 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 इति मन्ये.
आम्
अस्ति
महाभारतं महोदय, तत्र
महाभारत
चोप्रा चोप्रा इति
चोप्रा महोदयेन
कृतं,
उत्तमम् अस्ति महोदय.
तत्तु बहु उत्तमम् आसीत्.
किन्तु तत्रापि तत्र अलम्बुषः अपि इरावान् इति मया न श्रुतं तत्र, अतः न जानामि. हा द्रष्टव्यमस्ति. अस्तु तर्हि अग्रे तत्र नरेश महोदय वा? अस्तु,
त्रयोदशे दिनाङ्के अभिमन्युः दोषास् नया
सनिना, प्रायश दोषा दोषा सनिना इति प्रायश अस्ति. दुःशासनः यः अस्ति तस्य पुत्रः प्रायशः इति मन्ये. हा तत्र हरिणा इति अथवा हरिणा इति.
चतुर्दशे दिनाङ्के जयद्रथः अर्जुनेन हतः.
हतः इति समीचीनं महोदय. अस्तु अग्रे प्रिया भगिनी.
चतुर्दशे दिने भूरिश्रवाः सात्यकीना हतः.
हा समीचीनं भगिनि. हा अग्रे
पञ्चदशे दिने द्रोणः धृष्टद्युम्नेन हतः.
हा अस्तु अन्तिमं करोतु तत्र.
अस्तु सप्तदशे दिने कर्णः अर्जुनेन हतः.
अर्जुनेन हतः. अस्तु इदानीं तत्र प्रायशः तत्र अग्रिम अभ्यासः किञ्चित् कृत्वा समापयामः. शोभभगिनी आरम्भं करोति वा, तदनन्तरं वेदाभगिनी अपि द्वयं करोतु, तत् तदनन्तरं समापयामः.
आम् महोदय. महोदय तत्र इरावान् इति अर्जुनस्य पुत्रः आसीत् महोदय.
ओ अस्तु
उलूपी इति.
ओ उलूपी उलूपी इति. अस्तु हा पत्न्याः.
अलम्बुषः इति एकः राक्षसयोद्धा दुर्योधनस्य मित्रम् आसीत्.
ओ अस्तु 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 धन्यवादः भगिनि. अस्तु अतः प्रायशः तत्र महाभारते युद्धे अस्ति इति मन्ये एषः एतत्
अस्ति इति मन्ये महोदय. इरावान् अर्जुनस्य पुत्रः नागकन्या उलूपि इति आसीत् किल तस्य पुत्रः यदा अर्जुनः किं
नागलोकं गतवान्
अग्रिमं क्रीडाक्षेत्रं परितः वृक्षाः सन्ति द्वौ वानरौ वृक्षात् वृक्षं गच्छन्तौ क्रीडतः तौ कतमवृक्षात् कतमं वृक्षं गच्छतः इति अधः सूचितम् अस्ति उचितेन पदेन वाक्यानि पूरयत प्रथमवानरः तत्र अस्तु प्रथमः वानरः उदाहरणं प्रथमः वानरः प्रथमात् वृक्षात् द्वितीयं वृक्षं गच्छति अपि च तदनन्तरं द्वितीयः वानरः द्वितीयात्
न न न प्रथमवानः तत्र इदानीं तदनन्तरं द्वितीयात् वृक्षात् तृतीयं वृक्षं गच्छति
प्रथमवानरः एव
अस्तु अस्तु प्रथमवानरः
हा अतः प्रथमवानरं त्यजामः द्वितीयवानरः किं करोति तद् हा तद् द्विवारं वदतु भगिनि द्वितीयवानरः किं करोति इति
द्वितीयवानरः एकादश
न न न पञ्चविंशतितमात्
तत्र लवेन्त् इत्यस्मिन् द्वितीयवानरः इति भवति
न न न द्वितीयवानरः तस्य अधोभागे यत् लिखितम् अस्ति तदेव
पञ्च अस्तु 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 क्षम्यतां न दृष्टवती द्वितीयवानरः पञ्चविंशतितमात्
वृक्षात्
वृक्षात् पञ्चविंशतितमात् अथवा पञ्चविंशात् वृक्षात् चतुर्विंशतितमं वृक्षं
गच्छति गच्छति इति अस्तु समीचीनं
चतुर्विंशे चतुर्विंशं वृक्षं गच्छति
विंशं गच्छति इति समीचीनं भगिनि अस्तु वेदा भगिनी भवती अपि एकं वाक्यं वदतु तत्र
वानरः द्वितीयात् वृक्षात् तृतीयं वृक्षं कूदति गच्छति
गच्छति गच्छति अस्तु हा समीचीनम् अस्तु
द्वितीयवानरः पञ्च चतुर्विंशतितम
चतुर्विंशतितमात्
चतुर्विंशतमात् वृक्षात् तिस्रविंशति वा
न न प्रायश
त्रयोविंशतितमवृक्षं गच्छति
गच्छति इति समीचीनं भगिनि अस्तु अस्तु तर्हि तत्र एतावत् समीचीनमस्ति तत्र प्रिया भगिनी भवती तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि
आं महोदय अवश्यम्
अस्तु
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः
धन्यवादः भगिनि नमः धन्यवादः वेदा भगिनी उत्तमम् आसीत् धन्यवादः भगिनि
धन्यवादः
अस्तु अग्रिमे वर्गे मिलामः सर्वेभ्यो नमः नमस्कारः
नमस्कारः